अथ नवमोऽध्यायः शिवस्यात्मनो महेश्वर अभिधानम्। नन्दिकेश्वर उवाच, तत्रान्तरे तौ च नाथम् प्रणम्य विधिमाधमौ बद्धाञ्जलिपुटौ तूष्णीम् तश्चतुर् दक्षवामगौ। तत्र संस्थाप्य तौ देवम् सकुटुम्बम् वरासने पूजयामाथ दुःपूज्यम् पुण्यैः पुरुषवस्तुभिः। पौरुषम् प्राकृतम् वस्तु ज्ञेयम् दीर्घाल्पकालिकम् हारनूपुरकेयूरकिरीट मणिकुण्डलैः यज्ञसूत्रोत्तरीय स्रक्षौम माल्याङ्गुलीयकैः पुष्पताम्बूलकर्पूरचन्दनागुरुलेपनैः धूपदीपसितच्छत्र व्यञ्जनध्वजचामरैः अन्यै दिव्योपहारैश्च वाङ्मनोदीतवैभवैः पतियोगैः पश्वलभ्यैस्तौ समार्चयताम् पतिम्। यद्यच्छ्रेष्ठतमम् वस्तु पतियोग्यम् हितध्वजः तद्वस्त्वखिलमीशोऽपि पारम्पर्यचिकीर्षया सभ्यानाम् प्रददौ हृष्टः प्रतक्तत्र यथाक्रमम् कोलाहलो महानासीत्। तत्र तद्वस्तु गृह्णताम् तत्रैव ब्रह्मविष्णुभ्याम् चाचिदः शङ्करः पुरा प्रसन्नः प्राहतौ नम्रौ सस्मितम् भक्तिवर्धनः। ईश्वर उवाच, तुष्टोऽहम् अद्य वाम् वत्सौ पूजयास्मिन् महादिने। दिनमेतत्ततः पुण्यम् भविष्यति महत्तरम्। शिवरात्रिविख्यातातिथिरेषा मम प्रिया। एतत्काले तु यः कुर्यात् पूजाम् मल्लिङ्गवेरयोः कुर्यात् जगतः कृत्यम् स्थितिसर्गादिकम् पुमान्। शिवरात्रावहोरात्रम् निराहारोजितेन्द्रियः अर्चयेद् यो यथा न्यायम् यथा बलमवञ्चकः। सफलम् मम पूजायाम् वर्षमेकम् निरन्तरम् तत्फलम् लभते सद्य शिवरात्रौ मदर्चनात्। मद्धर्मवृद्धिकालोऽयम् चन्द्रकाल इवाम्बुधेः प्रतिष्ठाद्युत्सवो यत्र मामको मङ्गलायनः। यत्पुनस्तम्भरूपेण स्वाविरासमहम् पुरा सकालो मार्गशीर्षेतु स्याद् आर्द्रारुक्ष अर्भकौ। आर्द्राया मार्गशीर्षेतु यः पश्येन्मामुमासखम् तद्भेरमपि वालिङ्गम् स गुहादपि मे प्रियः। अलम् दर्शनमात्रेण फलम् तस्मिन् दिने शुभे अभ्यर्चनम् चेदधिकम् फलम् वाचामगोचरम्। रणरङ्ग तले अमुष्मिन् यदहम् लिङ्गवर्ष्मणा सृम्भितो लिङ्गवत्तस्मात् लिङ्गस्थानमिदम् भवेत्। अनाद्यतमिदम् स्तम्भम् अनुमात्रम् भविष्यति तदर्शनार्थम् हि जगताम् पूजनार्थम् हि पुत्रकौ। भोगावहमिदम् लिङ्गम् भुक्तिमुक्तैकसाधनम् दर्शनस्पर्शनध्यानाज्जन्तूनाम् जन्ममोचनम्। अनलाचलसङ्गाचम् यदिदम् लिङ्गमुत्थितम् अरुणाचलमित्येव तदिदम् ख्यातिमेष्यति। अत्र तीर्थम् च बहुधा भविष्यति महत्तरम् मुक्तिरप्यत्र जन्तूनाम् वासेन मरणेन च। रथोत्सवादिकल्याणम् जनावासम् तु सर्वदः अत्र दत्तम् हुदम् जप्तम् सर्वम् कोटिगुणम् भवेत्। मत्क्षेत्रादपि सर्वस्मात् क्षेत्रमेतन्महत्तरम् अत्र संस्मृतिमात्रेण मुक्तिर्भवति देहिनाम्। तस्मान्महत्तरमिदम् क्षेत्रमत्यन्तशोभनम् सर्वकल्याणसम्पूर्णम् सर्वमुक्तिकरम् शुभम्। अर्चयित्वात्र मामेव लिङ्गे लिङ्गिनमीश्वरम् सालोक्यम् चैव सामीप्यम् सारूप्यम् साष्टिरेव च। सायुज्यमिति पञ्चयते क्रियादीनाम् फलम् मधम् सर्वेऽपि यूयम् सकलम् प्राप्यथाशु मनोरथम्। नन्दिकेश्वर उवाच, इत्यनुगृह्य भगवान् विनीतौ विधिमाधमौ यत्पूर्वम् प्रहतम् युद्धे तयो सैन्यम् परस्परम् तदुत्तापयदत्यर्थम् स्वशक्त्यामृतधारया तयोर्मौढ्यम् च वैरम् च व्यपनेतुमुवाचतौ। सकलम् निष्कलम् चेति स्वरूपद्वयमस्ति मे नान्यस्य कस्यचित् तस्मात् अन्यः सर्वोऽप्यनीश्वरः। पुरस्तात् स्तम्भरूपेण पश्चाद् रूपेण चार्भकौ ब्रह्मत्वम् निष्कलत्वम् प्रोक्तम् ईशत्वम् सकलम् तथा द्वयम् ममैव संसिद्धम् न मदन्यस्य कस्यचित् तस्मादीशत्वमन्येषाम् युवयोरपि न क्वचित्। तदज्ञानेन वा मृत्तम् ईशमानम् महाद्भुतम् तन्निराकर्तुम् अत्रैवम् उत्थितोऽहम् रणक्षितौ त्यजतम् मानमात्मीयम् मयीशम् कुरुतम् मतिम्। मत्प्रसादेन लोकेषु सर्वोऽप्यर्थः प्रकाशते गुरूक्तिर्व्यञ्जकम् तत्र प्रमाणम् वा पुनः पुनः ब्रह्मतत्त्वमिदम् गूढम् भवत्प्रीत्या भणाम्यहम्। अहमेव परम् ब्रह्म मत्स्वरूपम् कलाकलम् ब्रह्मत्वादीश्वरश्चाहम् कृत्यम् मेऽनुग्रहादिकम्। बृहत्वाद् ब्रह्मणत्वाच ब्रह्माहम् ब्रह्म केशवौ समत्वाद्व्यापकत्वाच तथैवात्माहमर्भकौ। अनात्मानः परे सर्वे जीवा एव न संशयः। अनुग्रहाद्यम् सर्गात्तम् जगत्कृत्यम् च पञ्चकम् ईशत्वादेव मे नित्यम् न मदन्यस्य कस्यचित्। आदौ ब्रह्मत्वबुद्ध्यर्थम् निष्कलम् लिङ्गमुत्थितम् तस्मात् अज्ञातमीशत्वम् व्यक्तम् द्योतयितुम् हि वाम् सकलोहमथो जातः साक्षाद् ईशस्तु तत्क्षणात् सकलत्वमथो ज्ञेयम् ईशत्वम् मयि सत्वरम् यदिदम् निष्कलम् स्तम्भम् मम ब्रह्मत्वबोधकम् लिङ्गलक्षणयुक्तत्वान् मम लिङ्गम् भवेदिदम् तदिदम् नित्यमभ्यर्च युवाभ्याम् अत्र पुत्रकौ मदात्मकमिदम् नित्यम् मम सान्निध्यकारणम् महत्पूज्यमिदम् नित्यम् अभेदाल्लिङ्गलिङ्गिनोः यत्र प्रतिष्ठितम् येन मदीयम् लिङ्गमीदृशम् तत्र प्रतिष्ठितः सोऽहम् अप्रतिष्ठोऽपि वत्सकौ मत्साम्यमेकम् लिङ्गस्य स्थापने फलमीदितम् द्वितीये स्थापिते लिङ्गे मदैक्यम् फलमेव हि लिङ्गम् प्राधान्यतस्थाप्यम् तथा भेरम् तु गौणकम् लिङ्गाभावेन तत्क्षेत्रम् सभेरम् अपि सर्वतः इति श्रीशिवमहापुराणे प्रथमायाम् विद्येश्वरसंहितायाम् नवमोऽध्यायः ॐ